गजेंद्र मोक्ष पाठ आचार्य श्री 1008 श्री श्यामाराम जी महाराज के मुखारविंद से। राम राम राम।
नमस्कृत्य नरं चैव नरोत्तमं देवीं सरस्वतीं व्यासं ततो जयमुदीरये वसुदेवसुतं देवं कंसचाणूरमर्दनम् देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुं। महाभारत के पांच अमृत में चार अमृत तो पी लिए। महाभारत तो सागर है और ये पांच चीजें ही अमृत है, तो इस पांचवा अमृत है ये गजेंद्र मोक्ष। ये गजेंद्र मोक्ष भागवत में भी होता है और महाभारत में भी है। तो ये महाभारत वाला जो गजेंद्र मोक्ष है वो बताते हैं। पृष्ठ संख्या 149। नारायण नारायण नारायण। वसुदेवसुतं देवं कंसचाणूरमर्दनं देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुं। ॐ श्री परमात्मने नमः। अथ गजेन्द्रमोक्षः। नारद उवाच, यान् जप्यान् भगवद्भक्त्या प्रह्लादो दानवो जपत् गजेन्द्रमोक्षणादींस्तु चतुरस्तान्वदस्व मे। पुलस्त्य उवाच, शृणुष्व कथयिष्यामि जप्यानेतांस्तपोधन दुःस्वप्ननाशो भवति यैरुक्तैः संश्रुतैः स्मृतैः। गजेन्द्रमोक्षणम् त्वादौ शृणुष्व तदनन्तरम् सारस्वतम् ततः पुण्यौ पापप्रशमनौत्स्तवौ। सर्वरत्नमयः श्रीमांस्त्रिकूटो नाम पर्वतः सुतः पर्वतराजस्य सुमेरोर्भास्करद्युतेः क्षीरोदजलवीच्यग्रैर्धौतामलशिलातलः उत्थितः सागरम् भित्त्वा देवर्षिगणसेवितः अप्सरोभिः परिवृतः श्रीमान् प्रश्रवणाकुलः गन्धर्वैः किन्नरैर्यक्षैः सिद्धचारणपन्नगैः विद्याधरैः सपत्नीकैः संयतैश्च तपस्विभिः वृकद्वीपि गजेन्द्रैश्च वृतगात्रो विराजते पुन्नागैः कर्णिकारैश्च बिल्वामलकपाटलैः चूतनीपकदम्बैश्च चन्दनागुरुचम्पकैः शालैस्तालैस्तमालैश्च सरलार्जुनपर्पटैः तथान्यैर्विविधैर्वृक्षैः सर्वतः समलङ्कृतः नानाध्वात्वं कृतैः अङ्कितैः शृङ्गैः स्रवद्भिः समन्ततः शोभितो रुचिरप्रख्यैस्त्रिभिर्विस्तीर्णसानुभिः मृगैः शाखामृगैः सिंहैर्मातङ्गैश्च सदा मदैः जीवं जीवकसङ्घुष्टैश्चकोरशिखिनादितैः तस्येकं काञ्चनं शृङ्गं सेवतेयं दिवाकरः नानापुष्पसमाकीर्णम् नानागन्धाधिवासितम् द्वितीयम् राजतम् शृङ्गम् सेवते यन्निशाकरः पाण्डुराम्बुदसङ्कासम् तुषारचयसन्निभम् ब्रजेन्द्रनीलवैडूर्य तेजोभिर्भासयन् दिशः तृतीयम् ब्रह्मसदनम् प्रकृष्टम् शृङ्गमुत्तमम् न तत्कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः नातप्ततपसो लोके ये च पापकृतो जनाः। तस्य सानुमतः पृष्ठे सरह कांचन पंकजम कारंडव समाकीर्णम राजहंसोपशोभितम कुमुदोत्पलकौहारैः पुंडरीकैश्च मंडितम कमलैः शतपत्रैश्च कांचनैः समलंकृतम पत्रैर्मर्कत प्रख्यैः पुष्पैः कांचन सन्निभैः गुल्मैः केचक वेणूनां समन्तात् परिवेष्टितम् तस्मिन् सरसि दुष्टात्मा विरूपोऽन्तर्जलेशये आसीत् ग्राहो गजेन्द्राणां रिपुराके करे क्षणः अथ दन्तोज्ज्वलमुखः कदाचित् गजयूथपः मदस्रावी जलः काङ्क्षी पादचारीव सर्वतः पर्वतः वासयन्मदगन्धेन गिरिमेरावतोपमः गजो यञ्जनसङ्काशो मदाच्चलितलोचनः त्रिशतः पातु कामोऽसौ अवतीर्णश्च तज्जलम् सलिलः पङ्कजवने यूथमध्यगतश्चरन् गृहीतस्तेन रौद्रेण साग्राहेणाव्यक्तमूर्तिना पश्यन्तीनां करेणूनां क्रोशन्तीनां च दारुणम् ह्रियते पङ्कजवने ग्राहेणातिबलीयसा वारुणैः संयतः पाशैर्निष्प्रयत्नगतिकृतः वेष्ट्यमानसुघोरैस्तु पाशैर्नागो दृढिस्तथा विस्फूर्य च यथाशक्ति विक्रोशंश्च महारवान् व्यथितः स निरुत्साहो गृहीतो घोरकर्मणा परमापदमापन्नो मनसा चिन्तयद्धरिम् स तु नागवरः श्रीमान्नारायणपरायणः तमेव शरणम् देवम् गतः सर्वात्मना तदा एकात्मा निगृहीतात्मा शुद्धेनान्तरात्मना जन्मजन्मान्तराभ्यासाद् भक्तिमान् गरुडध्वजे नान्यम् देवम् महादेवात् पूजयामास केशवात् मतितामृतफेनाभम् शङ्खचक्रगदाधरम् सहस्रशुभनामानाम् आदिदेवमजम् विभुम् प्रगृह्य पुष्कराग्रेण काञ्चनम् कमलोत्तमम् आपद्विमोक्षमन्विच्छन् गजः स्तोत्रमुदीरयत् गजेन्द्र उवाच ॐ नमो मूल प्रकृतये अजिताय महात्मने अनाश्रिताय देवाय निःस्पृहाय नमोऽस्तुते नमः आद्याय बीजाय आर्षेयाय प्रवर्तिने अनन्तराय चैकाय अव्यक्ताय नमो नमः नमो गुह्याय गूढाय गुणाय गुणवर्तिने अप्रतर्क्या प्रमेयाय अतुलाय नमो नमः नमः शिवाय शान्ताय निश्चिन्ताय यशस्विने सनातनाय पूर्वाय पुराणाय नमो नमः नमो देवाधिदेवाय स्वभावाय नमो नमः नमो जगत्प्रतिष्ठाय गोविन्दाय नमो नमः नमोऽस्तु पद्मनाभाय नमो योगोद्भवाय च विश्वेश्वराय देवाय शिवाय हरये नमः नमोऽस्तु तस्मै देवाय निर्गुणाय गुणात्मने नारायणाय विश्वाय देवानां परमात्मने नमो नमः कारणवामनाय नारायणायामितविक्रमाय श्रीशार्ङ्गचक्रासि गदाधराय नमोऽस्तु तस्मै पुरुषोत्तमाय गुह्याय वेदनिलयाय महोदराय सिंहाय दैत्यनिधनाय चतुर्भुजाय ब्रह्मेन्द्ररुद्रमुनिचारणसंस्तुताय देवोत्तमाय वरदाय नमोच्युताय नागेन्द्रदेहशयनासनसुप्रियाय गोक्षीरहेमशुकनीलघनोपमाय पीताम्बराय मधुकैटभनाशनाय विश्वाय चारुमुकुटाय नमो जराय नाभिप्रजातकमलस्थचतुर्मुखाय क्षीरोदकार्णवनिकेतयशोधराय नानाविचित्रमुकुटाङ्गदभूषणाय विश्वेश्वराय वरदाय नमो वराय भक्तिप्रियाय वरदीप्तसुदर्शनाय फुल्लारविन्दविपुलाय तलोचनाय देवेन्द्रविघ्नशमनोद्यतपौरुषाय योगेश्वराय विरजाय नमो वराय ब्रह्माय नाय त्रिदशाय नाय लोकाधिनाथाय भवापनाय नारायणायात्महिताय नाय महावराय नमस्करोमि। कूटस्थमव्यक्तमचिन्त्यरूपं नारायणं कारणमादिदेवं युगान्तशेषं पुरुषं पुराणं तं देवदेवं शरणं प्रपद्ये। योगेश्वरं चारु विचित्रमौलिमज्ञेयमग्र्यं प्रकृते परस्थं क्षेत्रज्ञमात्मप्रभवं वरेण्यं तं वासुदेवं शरणं प्रपद्ये। अदृश्यमव्यक्तमचिन्त्यमव्ययं महर्षयो ब्रह्ममयं सनातनम् वदन्ति यं वै पुरुषं सनातनं तं देवगुह्यं शरणं प्रपद्ये। यदक्षरं ब्रह्म वदन्ति सर्वगं निशम्ययं मृत्युमुखात् प्रमुच्यते। तमीश्वरं तृप्तमनुत्तमैर्गुणैः परायणं विष्णुमुपैमि शाश्वतम्। कार्यं क्रियाकारणमप्रमेयं हिरण्यबाहुं वरपद्मनाभं महाबलं वेदनिधिं सुरेशं भजामि विष्णुं शरणं जनार्दनम्। किरीटकेयूरमहारनिष्कैर्मण्युत्तमालङ्कृतसर्वगात्रं पीताम्बरं काञ्चनभक्तिचित्रं मालाधरं केशममभ्युपैमि। भवोद्भवं वेदविदां वरिष्ठं योगात्मनां सांख्यविदां वरिष्ठं आदित्यरुद्राश्विवसुप्रभावं प्रभुं प्रपद्येच्युतमात्मवन्तं श्रीवत्साङ्गं महादेवं देवगुह्यमनोपमं प्रपद्ये सूक्ष्ममचलं वरेण्यमभयप्रदं प्रभवं सर्वभूतानां निर्गुणं परमेश्वरं प्रपद्ये मुक्तसङ्गानां यतीनां परमाङ्गदिं भगवन्तं गुणाध्यक्षम् अक्षरं पुष्करेक्षणं शरण्यं शरणं भक्त्या प्रपद्ये भक्तवत्सलं त्रिविक्रमं त्रिलोकेशं सर्वेषां प्रपितामहं योगात्मानं महात्मानं प्रपद्येऽहं जनार्दनम्। आदिदेवमदं शम्भुं व्यक्ताव्यक्तं सनातनम् नारायणमणीयांसं प्रपद्ये ब्राह्मणप्रियम्। नमो वराय देवाय नमः सर्वसहाय च प्रपद्ये देवदेवेश मणीयांसमणोस्सदा एकाय लोकतत्त्वाय परतः परमात्मने नमः सहस्रशिरसे अनन्ताय महात्मने। त्वामेव परमं देवं ऋषयो वेदपारगाः कीर्तयन्ति च यं सर्वे ब्रह्मादीनां परायणम्। नमस्ते पुण्डरीकाक्ष भक्तानामभयप्रद सुब्रह्मण्य नमस्तेऽस्तु त्राहि मां शरणागतम्। पुलस्त्य उवाच भक्तिं तस्यानुसञ्चित्य नागस्यामोघसम्भवः प्रीतिमान्नभवद्विष्णु शङ्खचक्रगदाधरः सान्निध्यं कल्पयामास तस्मिन् सरसि केशवः। गरुडस्थो जगत्स्वामी लोकाधारस्तपोधन ग्राहग्रस्तं गजेन्द्रन्तं तञ्च ग्राहं जलाशयात् उज्जहाराप्रमेयात्मा तरसा मधुसूदन। स्थलस्थं धारयामास ग्राहं चक्रेण माधव मोक्षयामास नागेन्द्रं पाशेभ्यः शरणागतम्। स हि देवलशापेन हुहुर्गन्धर्वसत्तमः ग्राहत्वमगमत्कृष्णाद्वधं प्राप्य दिवं गतः। गजोऽपि विष्णुना स्पृष्टो जातो दिव्यवपुपुमान् आपद्विपमुक्तौ युगपत् गजगन्धर्वसत्तमौ। प्रीतिमान् पुण्डरीकाक्षः शरणागतवत्सलः अभवत्त्वथ देवेशस्ताभ्यां चैव प्रपूजितः। इदं च भगवान् योगी गजेन्द्रं शरणागतम्। प्रोवाच मुनिशार्दूल मधुरं मधुसूदन श्रीभगवानुवाच इदं च भगवान् योगी गजेन्द्रं शरणागतम्। प्रोवाच मुनिशार्दूल मधुरं मधुसूदन श्रीभगवानुवाच ये मां त्वां च सरश्चैव ग्राहस्य च विदारणम् गुल्मकी चकरे एणूनाम रूपम मेरोह सुतस्य च अश्वत्थम भास्करं गंगाम नैमिषारण्यमेव च संस्मरिष्यन्ति मनुजा प्रयता स्थिर बुद्धये कीर्तयिष्यन्ति भक्त्या च श्रोष्यन्ति च शुचा शुचिव्रता दुःस्वप्नो नश्यते तेषां सुस्वप्नश्च भविष्यति मात्स्यं कौर्मं च वाराहं वामनं तार्क्ष्यमेव च नारसिंहं च नागेन्द्रं सृष्टि प्रलयकारकम् एतानि प्रातरुत्थाय संस्मरिष्यन्ति ये नराः सर्वपापैः प्रमुच्यन्ते पुण्यं लोकमवाप्नुयुः पुलस्त्य उवाच एवमुक्त्वा ऋषिकेशो गजेन्द्रं गरुडध्वज स्पर्शयामास हस्तेन गजं गन्धर्वमेव च ततो दिव्यवपुर्भूत्वा गजेन्द्रो मधुसूदनं जगाम शरणं विप्र नारायण परायणः ततो नारायणः श्रीमान् मोक्षयित्वा गजोत्तमं पापबन्धाच्च शापाच्च ग्राहं चाद्भुतकर्मकृत् ऋषिभिस्तूयमानश्च देवगुह्य परायणैः गतः स भगवान् विष्णुर्दुर्विज्ञेय गतिप्रभु गजेन्द्रमोक्षणम् दृष्ट्वा देवा शक्रपुरोगमा ववन्दिरे महात्मानम् प्रभुम् नारायणम् हरिम् महर्षयश्चारणाश्च दृष्ट्वा गजमोऽभिमोक्षणम् महर्षयश्चारणाश्च दृष्ट्वा गजविमोक्षणम् विस्मयोत्फुलनयनाः संस्तुवन्ति जनार्दनम् प्रजापतिपतिर्ब्रह्मा चक्रपाणि विचेष्टितम् गजेन्द्रमोक्षणम् दृष्ट्वा इदम् वचनम् अब्रवीत् य इदम् शृणुयात् नित्यम् प्रातरुत्थाय मानवम् प्राप्नुयात् परमाम् सिद्धिम् दुःस्वप्नस्तस्य नश्यति गजेन्द्रमोक्षणम् पुण्यम् सर्वपाप प्रणाशनम् कथितेन स्मृतेनाथ श्रुतेन च तपोधन गजेन्द्रमोक्षणेनेह सद्य पापात् प्रमुच्यते एतत् पवित्रम् परमम् सुपुण्यम् सङ्कीर्तनीयम् चरितम् मुरारेः यस्मिन् किलोक्ते बहुपापबन्धनाल्लभ्येत मोक्षोद्विरदेन यद्वत् अजम् वरेण्यम् वरपद्मनाभम् नारायणम् ब्रह्मनिधिम् सुरेशम् तम् देव गुह्यम् पुरुषम् पुराणम् वन्दाम्यहम् लोकपतिम् वरेण्यम् पुलस्त्य उवाच एतत्तवोक्तम् प्रवरम् स्तवानाम् स्तवम् मुरारेर्वरनागकीर्तनम् यम् कीर्त्य संश्रुत्य तथा विचिन्त्य पापापनोदम् पुरुषो लभेत एतत्तवोक्तम् प्रवरम् स्तवानाम् स्तवम् मुरारेर्वरनागकीर्तनम् यम् कीर्त्य संश्रुत्य तथा विचिन्त्य पापापनोदम् पुरुषो लभेत इति श्रीवामनपुराणे वामनप्रादुर्भावे गजेन्द्रमोक्षः समाप्तः। ये तो वामनपुराण से लिया हुआ है। वसुदेव सुतम् देवम् कंसचाणूरमर्दनम् देवकी परमानन्दम् कृष्णम् वन्दे जगद्गुरुम् कृष्णम् वन्दे जगद्गुरुम् श्रीकृष्ण गोविन्द हरे मुरारे हे नाथ नारायण वासुदेव श्री कृष्ण गोविंद हरे मुरारे
नाथ नारायण वासुदेवा
हे नाथ नारायण वासुदेवा हे नाथ नारायण वासुदेव
हे नाथ नारायण वासुदेव हे नाथ नारायण वासुदेव
हे नाथ नारायण वासुदेव
हे नाथ नारायण वासुदेव।